ओम नमो भगवते वासुदेवाय। अथ चतुर्विंशोऽध्यायः। श्रीशुक उवाच, अधस्तात् सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः संहिकेयो यतदर्हस्तस्य तादजन्मकर्माणि चोपरिष्टाद् वक्ष्यामः। यतदस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमा चक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः। सूर्याचन्द्रमसावविधावति तन्निशम्यो भयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः। ततोधस्तात् सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव। ततोधस्तात् यक्षरक्षः पिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते। ततोधस्ताच्छतयोजनान्तरयं पृथिवी यावद्ध्वंसभासस्येन सुपर्णादय पतत्रिप्रवरा उत्पतन्तीति उपवर्णितं भूमेर्यथा सन्निवेशावस्थानमवनेरप्यधस्तात् सप्तभूविवरा एकैकशो योजना युतान्तरेणायामविस्तारेणोपक्लृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति। एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्याना क्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति। येषु महाराजमयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्च कासति। उद्यानानि चातितरां मन इन्द्रियानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानामलजलपूर्णानां जसकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकल्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि यत्र वावनभयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते। यत्र हि महा हि प्रवरशिरोमणयः सर्वं तमप्रबाधन्ते। न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिरादयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोवस्थाश्च भवन्ति। न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात्। यस्मिन् प्रविष्टे सुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च। अथातले मयपुत्रोऽसुरो बलो निवसति येनः वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति। यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति यावै विलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुत महागजबलमात्मानमभिमन्यमानः कथ्यते मदान्ध इव। ततोधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपब्रह्मणाय भवो भवान्या सह मिथुनीभूत आस्ते यत प्रवृत्ता सरित्प्रवरा हाटकीनाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमानोजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति। ततोधस्तात् सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयन्स्तमेव भगवन्तमाराधनीयमपगत साध्वसास्तेऽधुनापि नो एवैतत् साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानाम् जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद्बिलनिलयैश्वर्यम् यस्य वावक्षुतपतनप्रस्खलनादिषु विवशः सगृह्णामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनम् मुमुक्षवोऽन्यथैवोपलभन्ते तद्भक्तानामात्मवताम् सर्वेषामात्मन्यात्मदात्मतयैव न वै भगवान्नूनमुस्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणम् मायामयभोगैश्वर्यमेवातनुतेति यत्तद्भगवतानधिगतान्योपायेन याच्याच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रति मुक्तो गिरिदर्याम् चापविद्ध इति होवाच नूनम् बतायम् भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तम् कियल्लोकत्रयमिदम् यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यम् यदुताकुतो भयम् पदम् दीयमानम् भगवत परमिति भगवतो परते खलु स्वपितरि तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्वितः परिहीण भगवदनुग्रह उपजगमिषतीति तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणोद्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदादशकन्धरो योजनायुतायुतम् दिग्विजय उच्चाटितः ततो धस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशम् चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ततो धस्तान्महातले काद्रवेयाणाम् सर्पाणाम् नैकशिरसाम् क्रोधवशो नाम गणः कुहकतक्षककालीयसुषेणादिप्रधाना महाभोगवन्तः पतत्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित् प्रमत्ता विहरन्ति ततो धस्ताद्रसातले दैतेया दानवाः प्रणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरेरेव तेजसा प्रतिहतबलावलेपा विलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ततो धस्तात् पाताले नागलोकपतयो वासुकि प्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जय धृतराष्ट्र शङ्खचूड कम्बलाश्वतर देवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामूह वै पञ्चसप्तदशशतसहस्रशीर्षाणाम् फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरम् स्वरोचिषा विधमन्ति ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे रह्वादिस्थितिबिलस्वर्गमर्यादा निरूपणम् नाम चतुर्विंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।